इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्य वार्ताः। राष्ट्रपतिना द्रौपदी मुर्मू वर्यया विकसित भारत ग्रामीण जीविका विधेयकम् अनुमोदितम्। प्रधानमन्त्री श्री नरेन्द्र मोदी अद्य असमस्य नामरूप क्षेत्रे षड्शताधिक दशसहस्र कोटिकाधिकै रूप्यकै निर्मितस्य उर्वरक संयन्त्रस्य आधारशिला संस्थापिता। भारतेन स्पष्टीकृतं यत् नवदिल्लीस्थ बांग्लादेशस्य उच्चायोगस्य बहिः एकत्रितैः प्रदर्शनकारिभिः सुरक्षा व्यवस्था नैव भञ्जिता। भारतीय विमानन प्राधिकरणेन सघनकुज्झटिका कारणेन विमानोड्डयनेषु विलम्बस्य परिवर्तनस्य परामर्श प्रख्यापित अस्ति। यात्रिणः प्रत्यग्र सूचना प्राप्त्यर्थं प्रोक्ताः सन्ति। एमनेस्टी इंटरनेशनल समवायन पाकिस्तानस्य पत्रकारस्य सोहरा बरकतस्य निगडने चिंता प्रकाशिता। अपि च दुबई मध्ये अंडर 19 इति ऊनविंशति वर्षाभ्यन्तरवर्तिनां पुरुषाणां एशिया चषकीय अन्त्यचक्रीय द्वन्द्वे पाकिस्तानेन भारतं पराजितम्। अथ वार्ताः विस्तरेण। राष्ट्रपतिना द्रौपदी मुर्मू वर्यया विकसित भारत ग्रामीण जीविका विधेयकम् अनुमोदितम्। अधुना ग्रामीण परिवारेभ्यः पञ्चविंशत्युत्तर एकशतमितानां दिनानां जीविकायाः समर्जनं निश्चप्रचं भविष्यति। एतद्धि मनरेगा योजनायाः स्थानं भजिष्यति। प्रधानमन्त्री श्री नरेन्द्र मोदी अद्य असमस्य नामरूप क्षेत्रे षड्शताधिक दशसहस्र कोटिकाधिकैः रूप्यकैः निर्मितस्य उर्वरक संयन्त्रस्य आधारशिला संस्थापिता। अनेन संयन्त्रेण उर्वरकस्य आयाते निर्भरता न्यूनी भविष्यति। जीविकायाः पारे सहस्रं नूतनाः अवसराश्च सृजिताः भविष्यन्ति। अस्याः परियोजनायाः उद्देश्यः उर्वरक उत्पादनस्य सुदृढीकरणं वर्धनम् अपि च कृषिक्षेत्रे वृद्धेः समर्थनम् आसीत्। एतत् संयन्त्रं प्रतिवर्षं सहस्राधिक द्वादशलक्ष मीट्रिक टनमितं रासायनिकम् उर्वरकम् उत्पादयिष्यति। अस्मिन्नवसरे श्रीमोदी उक्तवान् यत् एतत् संयन्त्रम् उर्वरक आयातस्य उपरि भारतस्य निर्भरतां न्यूनीकरिष्यति, अपि च वृत्तेरवसराणां सृजनं भविष्यति। श्रूयतां तावत् किं ब्रूते मोदी।
इस फर्टिलाइजर प्रोजेक्ट पर करीब 11,000 करोड़ रुपए खर्च किए जाएंगे। यहां हर साल 12 लाख मैट्रिक टन से ज्यादा खाद बनेगी। जब उत्पादन यही होगा तो सप्लाई तेज होगी, लॉजिस्टिक का खर्चा घटेगा, नाम रूप की यूनिट रोजगार स्वरोजगार के हजारों नए अवसर भी बनाएगी।
प्रधानमन्त्री उक्तवान् यत् पुरातन्याः निर्माणशिलायाः प्रौद्योगिकी अप्रासंगिकता प्राप्ता, परञ्च कांग्रेस प्रशासनेन अस्मिन् विषये ध्यानं न दत्तम्। अस्मात् कारणात् नामरूपस्य बहूनि संयन्त्राणि पिहितानि जातानि। प्रधानमन्त्री उक्तवान् यत् द्विविधम् इञ्जनयुतं प्रशासनम् अधुना कांग्रेस प्रशासने निर्मितानां समस्यानां समाधानं करोति इति। शृण्वन्तु तावत्।
असम की जो ताकत अहोम साम्राज्य के दौर में थी, विकसित भारत में असम वैसी ही ताकतवर भूमि बनाएंगे। नए उद्योगों की शुरुआत, आधुनिक इंफ्रास्ट्रक्चर का निर्माण, सेमीकंडक्टर्स, उसकी मैन्युफैक्चरिंग, कृषि के क्षेत्र में नए अवसर, टी गार्डन्स और उनके वर्कर्स की उन्नति, पर्यटन में बढ़ती संभावनाएं, असम हर क्षेत्र में आगे बढ़ रहा है।
श्री मोदिना उक्तं यत् चतुर्दशोत्तर द्विसहस्रतमे वर्षे सम्पूर्णे देशे केवलं 25,200,000 मीट्रिकटनमितस्य रासायनिकम् उर्वरकस्य उत्पादनं भवति स्म। अपरत्र विगत एकादश वर्षेषु परिश्रमस्य अनन्तरम् एतत् उत्पादनं प्रायः 6,300,000 मीट्रिकटनमितं यावत् वर्धितम् अस्ति।
जो यूरिया हमें महंगे दामों पर विदेशों से मंगाना पड़ता है, हम उसकी भी चोट अपने किसानों पर नहीं पड़ने देते। बीजेपी सरकार सब्सिडी देकर वो भार सरकार खुद उठाती है। भारत के किसानों को सिर्फ 300 रुपए में यूरिया की बोरी मिलती है। उस एक बोरी के बदले भारत सरकार को दूसरे देशों को करीब 3,000 रुपया देना पड़ता है।
भारतेन स्पष्टीकृतं यत् नवदिल्लीस्थ बांग्लादेशस्य उच्चायोगस्य बहिः एकत्रितैः प्रदर्शनकारिभिः सुरक्षा व्यवस्था भञ्जनस्य सामर्थ्यं नैव कृतम्। मन्त्रालयेन एतदपि उक्तं यत् प्रदर्शनकारिभिः बांग्लादेशे अल्पसंख्यकानां सुरक्षाया याचना कृता। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। भारतीय विमानपत्तन प्राधिकरणेन भारतीय विमानन प्राधिकरणे सघन कुज्झटिका कारणेन विमानोड्डयनेषु विलम्बस्य परिवर्तनस्य परामर्शः प्रख्यापितः अस्ति। यात्रिणः प्रत्यग्र सूचना प्राप्त्यर्थं च प्रोक्ताः सन्ति। ऋतुविज्ञान विभागेन दिल्ल्याः उत्तरप्रदेशस्य हरियाणायाः चण्डीगढस्य च कतिपय भागेषु सघन कुज्झटिकायाः सञ्चेतनापूर्वकम् ऑरेंज अलर्ट इति नारंग संचेतना प्रसारिता अस्ति। प्राधिकरणेन यात्रिणः परामृष्टाः यत् ते निज विमानानां स्थिति विषये सम्बद्ध विमान समवायस्य आधिकारिक माध्यमे सूचनां स्वीकुर्युः अथ च विमानपत्तनार्थं गमनसमये अतिरिक्त समयं स्वीकृत्य चलेयुः। एमएनएसटी इंटरनेशनल समवायेन पाकिस्तानस्य पत्रकारस्य सोहराब बरकतस्य निगडने चिन्ता प्रकाशिता। यः खलु ऑनलाइन इति अन्तर्जालीय आलोचनायाः आरोपे साइबर सुरक्षा विधिनियमस्य अन्तर्गतं निगडीकृतः अस्ति। सोहराब बरकतः राज्यसंस्थानाम् ऑनलाइन आलोचनायाः आरोपे निगडितः अस्ति। केन्द्रीय कृषि ग्रामीण विकास मंत्री शिवराज सिंह चौहान संसदि प्रावोचत् यत् नवीनं विकसित भारत जी रामजीत्याख्यं विधेयकं मनरेगा इति योजनायाः विशिष्टः विकासचरणः अस्ति। अस्य उद्देश्यं विकासस्य निर्धनानां च पक्षे कार्याचरणम् अस्ति। एतस्य विधेयकस्य अन्तर्गतं ग्रामीणपरिवारेभ्यः प्रतिवर्षं 25+ दिनानां वार्षिक जीविकायाः प्राप्ते निश्चप्रचं भविष्यति, यद्धि मनरेगा इति योजनायाः 100 दिनानां तुलनायां वर्धितं वर्तते। अमुना प्रोक्तं यत् एतत् विधेयकं निर्धनकल्याणार्थं ग्रामीणविकासार्थं च महात्मगान्धिनः विचारधारायाः अनुरूपम् अग्रेवर्धनस्य प्रयासः अस्ति। विशेषतश्च गान्धिनः ग्रामस्य सम्पूर्णविकासः इत्यस्य दृष्टिकोणे शिवराज सिंहेन एतदपि प्रोक्तं यत् सर्वकारः निर्धनानां हिते भूरि कल्याण योजनाः प्रचालयति। एषः नूतनः विधिरपि अस्यामेव दिशि एकः बृहत् पदक्षेपः वर्तते। विकसित भारत गारंटी फॉर रोजगार एंड आजीविका मिशन ग्रामीण वीबीजी रामजीत्याख्यं विधेयकं पारितम् अस्ति। एतस्य अन्तर्गतम् इदानीं ग्रामीणपरिवारेभ्यः 25+ दिनानां श्रमजीविका प्रदास्यते। रेल विभागेन घोषितम् अस्ति यत् दिसम्बर 26 आरभ्य यात्रिणां भाटकं युक्तिसंगतं विधास्यन्ते। साधारणश्रेण्यां 15+ किलोमीटर पर्यन्ताया यात्रायाः कृते भाटकं नैव वर्धिष्यते। तदनन्तरं दूरतायाः अनुरूपं प्रति किलोमीटर मितं भाटकं वर्धिष्यते। साधारणश्रेण्यां प्रति किलोमीटर मितं एकपणकं, तत्रैव मेल एक्सप्रेस रेलयानानां नॉन एसी इति वातानुकूलनरहितायां श्रेण्यां प्रति किलोमीटर मितं पणकद्वयं वर्धिष्यते। वातानुकूलन श्रेण्यामपि प्रति किलोमीटर मितं पणकद्वयं भाटकं वर्धितम् अस्ति। रेलविभागेन स्पष्टीकृतम् अस्ति यत् उपनगरीय सेवाकृते मासिकोत्सवीय कालार्थं च भाटकं न वर्धितम् अस्ति। अनेन भाटकयुक्तिकरणेन प्रवर्तमाने वर्षे प्राय 600 कोटि रूप्यकाणाम् अतिरिक्त राजस्वार्जनस्य आशा विद्यते। रेलविभागेन एतदपि प्रतिपादितं यत् विगत एकस्मिन् दशके रेलमार्ग पट्टिका सञ्जाले परिचालने च बृहती विस्तृतिः जाता अस्ति, अथ च सुरक्षा व्यवस्थापूर्वकं रेलसञ्चालनं सुदृढं कर्तुं मानव संसाधनानि अपि वर्धितानि सन्ति। उपराष्ट्रपतिः सीपी राधाकृष्णन् उक्तवान् यत् ध्याने सकारात्मकस्य समावेशनस्य समाजं निर्मातुं परिवर्तनस्य च शक्तिः वर्तते। अद्य हैदराबाद नगरस्य काना शान्तिवनम् इत्याख्ये स्थले द्वितीय विश्व ध्यान दिवसमाधृत्य सः अब्रवीत् यत् हार्टफुलनेस मूवमेंट इति संस्था शान्ति सौहार्द आध्यात्मिक कल्याणाय च महत्वपूर्णं कार्यं कुर्वदस्ति। सः अवदत् यत् मुक्तं चेतनं च मनः लोकसेवायां समाजे च सकारात्मकं परिवर्तनं कर्तुं शक्नोति। डॉक्टर राधाकृष्णन् उक्तवान् यत् ध्यानं भारतस्य प्राचीनस्य आध्यात्मिक परम्परायाः भागः अस्ति, यत् मनसः चेतनायाः च विज्ञानं वर्तते। केन्द्रीय गृहमन्त्रालयेन सीमासुरक्षाबले भटानां नियुक्तिकृते पूर्वाग्निवीराणाम् आरक्षणं 10% संवर्ध्य 50% कृतमस्ति। अधिसूचनायानुसारेण प्रथम गुल्मस्य पूर्वाग्निवीराणाम् अधिकतम आयुसीमासु अपि 5 वर्षाणां शैथिल्यं प्रदास्यते। तत्रैव अन्य पूर्वाग्निवीरेभ्यः वर्षत्रयस्य शैथिल्यं प्रदास्यते। अनेन सममेव पूर्वाग्निवीरेभ्यः शारीरिक मानकपरीक्षणे शारीरिकदक्षतापरीक्षणे अपि शैथिल्यं प्रदास्यते। दुबई मध्ये अण्डर 19 इति 49 वर्षाभ्यन्तरवर्ती पुरुषाणाम् एशिया चषकी अन्त्यचक्रीय द्वन्द्वे पाकिस्तानेन भारतं पराजितम्। ध्येयमस्ति यत् पाकिस्तानेन प्रथम 48+ धावनांकानां लक्ष्यम् अनुसरत् भारतीयदलं 50+ धावनांकेषु एव बहिर्भूतम् इति वार्ताः।